रामचन्द्राय जनकराज जामनोहराय मामकाभीष्टदाय महितमङ्गलम् रामचन्द्राय जनकराज जामनोहराय मामकाभीष्टदाय महितमङ्गलम् कोशलेशाय मन्दहासदास पोषणाय वासवादि विनुत स वरदमङ्गलम् कोशलेशाय मन्दहासदास पोषणाय वासवादि विनुत स वरदमङ्गलम् चारुमेघरूपाय चन्दनादिचर्चिताय पारकटकशोभिताय भूरिमङ्गलम् चारुमेघरूपाय चन्दनादिचर्चिताय हारकटकशोभिताय भूरिमङ्गलम् ललितरत्नकुण्डलाय तुलसीवनमालिकाय जलजसदृशदेहाय चारुमङ्गलम् ललितरत्नकुण्डलाय तुलसीवनमालिकाय जलजसदृशदेहाय चारुमङ्गलम् देवकी सुपुत्राय देवदेवोत्तमाय भावजागुरुवराय भव्यमङ्गलम् देवकी सुपुत्राय देवदेवोत्तमाय भावजागुरुवराय भव्यमङ्गलम् पुण्डरीकाक्षाय पूर्णचन्द्रवदनाय अण्डजावाहनाय मधुरमङ्गलम् काक्षाय पूर्णचन्द्रवदनाय अण्डजावाहनाय अतुलमङ्गलम् विमलरूपाय विविध वेदान्तवेद्याय सुमुखचित्तकामिताय शुभदमङ्गलम् विमलरूपाय विविध वेदान्तवेद्याय सुमुखचित्तकामिताय शुभदमङ्गलम् रामदासाय मृदुल हृदय कमल निवासाय स्वामि भद्रगिरिवराय सर्वमङ्गलम्।